इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य उक्तं यत् नेक्स्ट जनरेशन जीएसटी परिष्कारः श्वः नवरात्र्याः प्रथमदिनात् प्रवर्तयिष्यति। सममेव एतैः परिष्कारैः राष्ट्रस्य विकासगाथा परिवर्तिता भविष्यति। रक्षामन्त्री राजनाथसिंह अद्यारभ्य द्विदिवसीया यात्रायै मोरक्कोदेशं प्रति प्रयास्यति। तालिबानस्य अधिकारिणः बागराम वायुसेनास्थानकं पुनः ग्रहीतुम् अमेरिकादेशस्य विभीषिकां दृढतया निराकृतवन्तः। सम्पूर्णे देशे महालया इति महोत्सव महदोल्लासेन आचर्यते। भारतस्य आनन्दकुमार वेलकुमारेण वर्ल्ड स्पीड स्केटिंग चैम्पियनशिप इति प्रतिस्पर्धायां स्वर्णपदकं विजितम्। अपि च एशिया कप इति क्रिकेट क्रीडा प्रतिस्पर्धाया सुपर फोर इति चक्रे अद्य भारत पाकिस्तानयो मध्ये स्पर्धा भविष्यति। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य उक्तं यत् नेक्स्ट जनरेशन जीएसटी परिष्कारः श्वः नवरात्र्याः प्रथमदिनात् प्रवर्तयिष्यति। अद्य सायंकाले राष्ट्रं सम्बोधयन् श्रीमोदी अवदत् यत् श्वः आरभ्य जीएसटी बचत उत्सवः आरभ्यते। जनाः स्वेच्छया वस्तूनि न्यूनमूल्येन क्रेतुं शक्नुवन्ति। सः अवदत् यत् एतैः परिष्कारैः राष्ट्रस्य विकासगाथा परिवर्तिता भविष्यति, तथा च युवकाः, नवमध्यमवर्गः, कृषकाः, महिलाः, उद्यमिनः च अस्य बचत उत्सवेन लाभान्विताः भविष्यन्ति। राष्ट्रस्य विकासयात्रायां प्रत्येकं राज्यं समानसहभागी भविष्यति इति सः अवधानं दत्तवान्। सः अग्रिमांशस्य जीएसटी परिष्काराणां कृते, बचत उत्सवस्य नवरात्रि उत्सवस्य च कृते राष्ट्राय शुभाशयाः प्रेषितवान्।
इस जीएसटी बचत उत्सव में आपकी बचत बढ़ेगी और आप अपनी पसंद की चीजों को और ज्यादा आसानी से खरीद पाएंगे। हमारे देश के गरीब, मध्यम वर्गीय लोग, न्यू मिडिल क्लास, युवा, किसान, महिलाएं, दुकानदार, व्यापारी, उद्यमी सभी को ये बचत उत्सव का बहुत फायदा होगा।
प्रधानमन्त्री अवदत् यत् तस्य सर्वकारेण करव्यवस्थां सरलीकृतम्। स अवोचत् यत् तस्य सर्वकारः 14-2000 वर्षे सत्ताग्रहणानन्तरं राज्यैः हितधारकैः च सह परामर्शं कृत्वा जीएसटी इत्यस्य कृते प्राधान्यम् अददात्। विगतेषु द्वादशवर्षेष् 25 कोटिजनाः दारिद्र्याद् बहिः समागताः इत्यस्मिन् विषये प्रधानमन्त्री हर्षं प्रकटितवान्। सः अवदत् यत् नवमध्यमवर्गस्य स्वकीयाः अभिलाषाः सन्ति, तथा च तेषां करभारं शमनाय सर्वकारेण उपायाः कृताः।
पिछले 11 साल में देश में 25 करोड़ लोगों ने गरीबी को हराया है और गरीबी से बाहर निकल करके 25 करोड़ का एक बहुत बड़ा समूह नियो मिडिल क्लास के रूप में आज देश के अंदर बहुत बड़ी भूमिका अदा कर रहा है। इस नियो मिडिल क्लास की अपनी एस्पिरेशंस हैं, अपने सपने हैं और स्वाभाविक हैं। जब 12 लाख रुपयों का इनकम टैक्स में राहत हो जाए तो मध्यम वर्ग के जीवन में तो कितना बड़ा बदलाव आता है।
श्री मोदी अवदत् यत् तस्य सर्वकारः नागरिक देवो भव इत्यनेन मन्त्रेण अग्रे गच्छति। रक्षामन्त्री राजनाथसिंह अद्यारभ्य द्विदिवसीय यात्रायै मोरक्कोदेशं प्रति प्रयास्यति। कश्चन भारतस्य रक्षामन्त्रिणः मोरक्कोदेशस्य इयं प्रथमा यात्रा भविष्यति, यत् द्वयोः देशयोः मध्ये वर्धमानं सामरिकं सहयोगं प्रतिबिम्बयति। अस्मिन् यात्रावधौ रक्षा सामरिकम् औद्योगिक सहयोगं च सुदृढीकर्तुं सः मोरक्कोदेशस्य रक्षामन्त्रिणा अब्देलतीफ लाउदी इत्यनेन सह द्विपक्षीयोपवेशनं करिष्यति। असौ बर्शीद नगरे टाटा एडवांस सिस्टम्स मोरक्को समवायस्य व्हील्ड आर्म्ड प्लेटफॉर्म इत्यस्य नूतन विनिर्माण संयंत्रस्य उद्घाटने सम्मिलितो भविष्यति। एतत् अफ्रीकादेशे प्रथमं भारतीय रक्षा विनिर्माण संयंत्रम् अस्ति। आत्मनिर्भर भारत पदक्षेपान्तर्गतं देशस्य रक्षा उद्योगस्य वर्धमाने वैश्विक प्रभावे एषा महत्वपूर्णा उपलब्धिः अस्ति। रक्षामन्त्री मोरक्को देशस्य उद्योग व्यापार मन्त्री च रियाद मेजोर इत्यनेन सह वार्तां करिष्यति। सः रबात नगरे भारतीय समुदायेन सह अपि मेलनं करिष्यति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल एप इत्यत्र अपि उपलब्धो भविष्यति। महालया इति महोत्सव विभिन्नेषु राज्येषु आचर्यते। महालया इति पर्व पितृपक्षस्य समाप्तेः प्रतीकमस्ति। सममेव दुर्गार्चन महोत्सवस्य आरम्भस्य प्रतीकम् अपि अस्ति। मन्यते यत् अस्मिन् दिने देवी दुर्गा महिषासुर राक्षसम् अहनत्। अवसरेऽस्मिन् प्रधानमन्त्री नरेन्द्र मोदी, गृहमन्त्री अमित शाह च जनेभ्य शुभकामनाः प्रदत्तवन्तौ। तालिबानस्य अधिकारिणः बागराम वायुसेना स्थानकं पुनः ग्रहीतुम् अमेरिका देशस्य विभीषिकां दृढतया निराकृतवन्तः। विदेशी सैन्य उपस्थितुं पुनः स्थापयितुं कस्यापि प्रयासस्य दृढतया प्रतिरोधः भविष्यति इति अवधानं दत्तवन्तः। प्रधानमन्त्री नरेन्द्रमोदी श्वः अरुणाचलप्रदेश त्रिपुरा राज्ययोः यात्रां करिष्यति। अस्मिन् यात्रावधौ सः एकशताधिक पञ्चसहस्रकोटिरूप्यकाणाम् अनेक विकास परियोजनानाम् उद्घाटनम् अपि करिष्यति। श्रीमोदी अरुणाचलप्रदेशे सप्तशताधिक त्रिसहस्रकोट्यधिक रूप्यकाणां द्वयोः प्रमुखयोः जलविद्युत् प्रकल्पयोः आधारशिलां च स्थापयिष्यति। प्रधानमन्त्री तवांग नगरे एकस्य अत्याधुनिक सम्मेलन केन्द्रस्य आधारशिलां च स्थापयिष्यति। प्रधानमन्त्री 90-200-शतकोट्यधिक रूप्यकाणां विविध मूलभूत परियोजनानां शुभारम्भम् अपि करिष्यति। एताभि परियोजनाभि सम्बद्धता, स्वास्थ्य, अग्निसुरक्षा, कार्यरता महिला च लाभान्विता भविष्यन्ति। अस्मिन् अवसरे श्रीमोदी ईटानगरे एकां जनसभाम् अपि सम्बोधयिष्यति। सः स्थानीय करदातृभि, व्यापारिभि, उद्योगप्रतिनिधिभिश्च सह वस्तु सेवाकरस्य प्रभावी कुशीदानामाधृत्य चर्चां करिष्यति। असौ त्रिपुरायां तीर्थयात्रा पुनरुद्धार कार्यं समेत्य आध्यात्मिक विरासत संवर्धन अभियान योजनायाः अन्तर्गतं मातावाड़ी क्षेत्रे माता त्रिपुरा सुन्दरी मन्दिर परिसरस्य विकासकार्यस्य उद्घाटनमपि करिष्यति। केन्द्रीय शिक्षामन्त्री धर्मेन्द्र प्रधान उक्तवान् यत् नूतन शिक्षानीतिः छात्राणां शिक्षणस्य सफलतायाः सूत्रम् अस्ति। अद्य IIT चेन्नई नगरे दक्षिणापथ शिखर सम्मेलनं सम्बोधयन् मन्त्री अवदत् यत् 47-2000 वर्षं यावत् विकसितस्य भारतस्य लक्ष्यं प्राप्तुं विद्यालयीय शिक्षायां केचित् परिवर्तनानि भवितव्यानि, येन उच्च माध्यमिक शिक्षा प्राप्तानन्तरं छात्राणां विकासः भवेत्। शिक्षामन्त्री अवदत् यत् विद्यालयीय शिक्षायाः कौशलपक्षे ध्यानं दातव्यम्। अतः एव नूतन शिक्षानीत्यां षष्ठश्रेणीतः कौशलशिक्षा कार्यान्विता अस्ति। चीनदेशे प्रचलिते वर्ल्ड स्पीड स्केटिंग चैम्पियनशिप इति प्रतिस्पर्धायां भारतस्य आनन्द कुमार वेलकुमारेण पुरुषयुगलवर्गस्य 42 किलोमीटर मितस्य मैराथन इति स्पर्धायां स्वर्णपदकं विजितम्। 25-2000 वर्षस्य DP वर्ल्ड एशिया कप इति क्रिकेट क्रीडा प्रतिस्पर्धायाः सुपर फोर इति चक्रे अद्य भारत पाकिस्तानयो मध्ये स्पर्धा भविष्यति। स्पर्धेयं दुबई इंटरनेशनल क्रीडांगणे भारतीय समयानुसारं राष्ट्रौ 8 समारप्स्यते। मुख्यवार्ताः पुनरेकवारं। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य उक्तं यत् नेक्स्ट जनरेशन GST परिष्कारः श्वः नवरात्र्याः प्रथमदिनात् प्रवर्तयिष्यति। सममेव एतैः परिष्कारैः राष्ट्रस्य विकासगाथा परिवर्तिता भविष्यति। रक्षामन्त्री राजनाथ सिंह अद्यारभ्य द्विदिवसीययात्रायै मोरक्को देशं प्रति प्रयास्यति। अपि च एशिया कप इति क्रिकेट क्रीडा प्रतिस्पर्धाया सुपर फोर इति चक्रे अद्य भारत पाकिस्तानयो मध्ये स्पर्धा भविष्यति इति वार्ताः।